पेशा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। प्रतिनिधि सभायाः गतदिवसीयोपवेशे नेपालस्य नवीन मानचित्रम् नेपालस्य संविधानस्य अनुसूच्याम् समावेशयितुम् नेपालस्य एतत् विक्रमवर्षीयम् संविधान द्वितीय संशोधन विधेयकम् प्रस्तुतम् वर्तते। उपवेशे वेदिन्याय संसदीय विषयमन्त्री डाक्टर शिवमाया तुम्बहाम्फे विधेयकमेतद् विचार्यतामिति प्रस्तावम् प्रास्तौत्। गतदिवसीयोपवेशे सत्तारूढस्य नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य कृष्ण भक्त पोखरेलः, खगराज अधिकारी, शान्ता चौधरी, गंगा चौधरी, तुलसा थापा च सर्वकारेण आनीतम् विधेयकम् राष्ट्रियतायाः राष्ट्रहितस्य च पक्ष स्थिति अभासन्त। प्रमुख प्रतिपक्षिण नेपाली कांग्रेस दलस्य प्रमुख सचेतक बालकृष्ण खाँ, पुष्पा भूषालः, डाक्टर मिनेन्द्र प्रसाद रिजालः, गगन थापा, डीला संग्रौला च स्वदलम् नवीन मानचित्रेण सह संशोधनस्य पक्ष स्थिति चर्चयन्तः अवोचन् अतः परम् भूमेः प्रत्यावर्तनाय च प्रयत्नो विधातव्य। उपवेशे समाजवादी दलस्य राजेन्द्र श्रेष्ठा, राष्ट्रिय जनता दलस्य लक्ष्मण लाल कर्णः, राष्ट्रिय जनमोर्चा दलस्य दुर्गा पौडेलः, नेपाल मजदूर किसान दलस्य प्रेम सुबालश्च धारणाः उदयरयन्। प्रतिनिधि सभायाः गतदिवसीयोपवेशेऽपि एतद् विक्रमवर्षीयस्य विनियोजन विधेयकस्य अन्तर्गते विभिन्नानाम् मन्त्रालयानाम् आयव्ययक शीर्षक सम्बद्धे विमर्शने उत्थापितानाम् विषयाणाम् सम्बन्धे सम्बद्ध मन्त्रिभिः उत्तर प्रदान क्रम सततम अचलत। उपवेशे ऊर्जो जल स्रोत सिंचन शिक्षा विज्ञान प्रविधि संघीय विषय सामान्य प्रशासन परराष्ट्र गृह रक्षार्थ संचार सूचना प्रविधि मंत्रिण प्रश्नान अवतरयन। एतस्मिन् क्रमे उपवेशे उप प्रधान रक्षा मंत्री ईश्वर पोखरेल अवदत् नेपाली सेनया नेपालस्य अन्तर्राष्ट्रिय सीमाया निश्चित दूरिया अभ्यन्तरे स्थित्वा निरन्तरं सीमाया सुरक्षा निरीक्षणं च विधीयमानेस्त। उप प्रधानमन्त्री पोखरेल अब्रवीत् नेपाली सेनया सुरक्षायाः अतिरिक्तम् विकास निर्माणयोः राष्ट्रिय गौरवस्य च आयोजनानाम् मुख्य मार्गाणाम् च निर्माणस्य राष्ट्रिय निकुञ्जानाम् सुरक्षायाश्च कार्याणि सर्वकारेण प्रदत्तस्य दायित्वस्य अनुसारेण विधीयमानानि सन्ति। गृहमन्त्री रामबहादुर थापा अकथयत् लिपुले कालापानी लिम्पियाधुरा क्षेत्रेषु नेपाली भूमेः अतिक्रमणस्य विषयः नेपाल सर्वकारेण षड्दशक पूर्वमेव ज्ञातः सन्नपि इदानीं वर्तमान सर्वकारेण तत्रत्यम् अतिक्रमणम् निराकर्तुम् वस्तुगत कार्यमग्रे वर्धापितम् वर्तते। गृहमन्त्री थापा अब्रवीत् नेपालस्य सुदूर पश्चिम क्षेत्रस्य छाङ्ग्रु लिपुले क्षेत्रे सशस्त्र प्रहरी बलम् प्राप्तमस्ति, तत्र सीमा निरीक्षण केन्द्रस्य निर्माण कार्यमपि शीघ्रम् प्रारप्स्यते। अर्थमन्त्री डाक्टर युवराज खतिवडा अगत स्वास्थ्य कृषि श्रम शिक्षा पेयजल महिला मन्त्रालयानाम् आयव्ययकम् सामान्यतः उल्लेख्य रूपेण वर्धितमस्ति। विनियोजन विधेयकस्य विमर्शने उत्थापितान् विषयान् उत्तरयन् अर्थमन्त्री डाक्टर खतिवडा कोरोना संक्रमणस्य कारणेन राजस्वस्य आधारः संकुचितः अस्तीति कारणेन आगामिनः आर्थिक वर्षस्य विनियोजनम् वर्तमानार्थिक वर्षस्य अपेक्षया न्यूनीकरणीयम् अभूत् इति समस्पष्टयत्। अर्थमन्त्री डाक्टर खतिवडा आयव्ययकस्य आकारे प्रतिशतम् चतुष्टयेन न्यूनी भविष्यति, राजस्व प्रतिशतम् नवमे न्यूनी भविष्यतीति च अनुमितम् सदपि प्रदेशानाम् स्थानीयस्तराणाम् च आयव्ययकम् न न्यूनीकृतम् इति समस्पष्टयत्। शिक्षा विज्ञान प्रविधि मन्त्री गिरिराजमणि पोखरेल शिक्षायाः महत्वपूर्ण दायित्वात् सर्वकारः पराङ्मुखो न भवतीति समस्पष्टयत्। मन्त्री पोखरेल अगदात् कोविड उनविंशति महामार्या परम्परागत शिक्षा क्षेत्रस्य विकल्पे प्राप्तावसरः सर्वकारेण अधिकतमम् प्रयुज्यते, असौ शैक्षिक वर्षस्य क्षति रोधनम् प्रति सर्वकार संवेदनशीलो वर्तते इति ज्ञापयन् अवोचत् द्वैविध्ये स्थिताः परीक्षा विलम्बनेनापि सञ्चालयिष्यन्ते, वैकल्पिक माध्यमेन शिक्षणम् च प्रारप्स्यते। परराष्ट्रमन्त्री प्रदीप कुमार ग्यवाली प्रतिकूलावस्थायामपि अन्तर्राष्ट्रिय सम्बन्धस्य आधारम् केन्द्रे निधाय नवीनरीत्या नेपालेन परराष्ट्रनीति सञ्चालयिष्यते इत्यवोचत्। ऊर्जो जल स्रोत सिंचन मन्त्री वर्षमान पुन देशस्य अभ्यन्तरे विद्युदापूर्तेः व्यवस्थायी प्रसारण प्रणाल्यः विस्ताराय पर्याप्त वित्तम् विनियोजितम् इति अज्ञापयत्। ऊर्जो मन्त्री पुन राष्ट्रे सम्प्रति विद्युतः उत्पादन क्षमता षडशीत्यधिक त्रयोदशत मेगावाट मिता प्राप्तास्थिति ज्ञापयन् अवोचत् आगामिनि आर्थिक वर्षे आसन्न त्रयोदश शत मेगावाट मिता अतिरिक्ता विद्युत् राष्ट्रिय प्रसारण प्रणाल्यां योक्ष्यते। संघीय विषय सामान्य प्रशासन मन्त्री हृदय त्रिपाठी अवदत् संघ प्रदेश स्थानीय स्तराणां मध्ये समन्वय मिदातुं मन्त्रालयेन महत्वपूर्ण भूमिका निर्वक्ष्यते। तत्पूर्वं प्रतिनिधिसभाया ह्यस्तनोपवेशस्य प्रारम्भे समयं अभियाच्य प्रमुख प्रतिपक्षो नेपाली कांग्रेस दलस्य सांसद गगन थापा वर्तमान प्रतिकूलावस्थायां स्थान प्रति सर्वकारस्य ध्यानम् आकर्षयन् कोरोना नियन्त्रणे व्ययकृतस्य आयव्ययस्य विवरणं संसदि ज्ञापयितुम् अभ्ययाचत। राष्ट्रियसभायाः गतदिवसीयोपवेशस्य विशेष समये भाषमाणाः सांसदाः कोरोना महामारी प्रवृत्तिषु सामयिक विषयेषु सर्वकारस्य ध्यानम् आकर्षयन् सांसदाः कोरोना महामार्याः समये सर्वकारेण दायित्वपूर्णतया कार्यं कर्तुं न शक्तमिति आरोपयन्तः आर्थिक क्षेत्रं सञ्चालनशीलं कारयितुं सर्वकारस्य ध्यानं न आकृष्टमिति अवोचन्। उपवेशे संस्कृति पर्यटन नागरिकोड्डयन मन्त्री योगेश भट्टराई गत विक्रमाब्दीयं प्रतिलिप्यधिकार संशोधन विधेयकं प्रस्तुत। उपवेशे उद्योग वाणिज्यापूर्ति मन्त्रिणा लेखराज भट्टेन प्रस्तुता गत विक्रमाब्दीयं मानक मापन तोलन विधेयकं सूत्रगत विमर्शनाय विधायन व्यवस्थापन समितो प्रेषणीयम् इति विषयक प्रस्तावः सर्वसम्मत्या स्वीकृतो भवत्। राष्ट्रियसभायाः अपर उपवेश अद्य दिवात्रिवादने वसति। गतदिने अतिरिक्तानां 96 जनानां स्वास्थ्यलाभं प्राप्य गृह प्रत्यावर्तनानन्तरं नेपाले अद्यावधि कोरोनामुक्तानां जनानां संख्या 84.5% प्राप्तास्ति। स्वास्थ्य जनसंख्या मन्त्रालयस्य ह्यस्तने नियमित संचार संक्षेप कार्यक्रमे मन्त्रालयस्य प्रवक्ता डाक्टर जागेश्वर गौतमः नेपाले अद्यावधि कोरोना संक्रमणानन्तरं 15 जनाः मृताः सन्तीति अज्ञापयत्। एवमेव गतदिने 23.7 जनेषु कोरोना संक्रमणस्य पुष्ट्या सहैव नेपाले अद्यावधि समग्रता कोरोना संक्रान्तानां जनानां संख्या 85.1% प्राप्ता वर्तते इति प्रवक्ता डाक्टर गौतमः अज्ञापयत्। स्वास्थ्य जनसंख्या मन्त्रालयस्य टेकुवर्तिन्या राष्ट्रिय जनस्वास्थ्य प्रयोगशालया अन्तर्राष्ट्रिय स्तर मापदण्डस्य मान्यता प्राप्तास्ति। आईएसओ नामकेन अन्तर्राष्ट्रिय गुणस्तर संगठनेन प्रयोगशालया प्रदीयमान सेवाया गुणस्तरस्य विश्वसनीयतायाश्च आधारे अन्तर्राष्ट्रिय स्तर मापदण्डस्य प्रमाणपत्रं गतदिने नेपालस्थितेन संगठनस्य प्रतिनिधिना डाक्टर सीताराम जोशिना प्रयोगशालाया निर्देशिकायै डाक्टर रुना झाविदायी काष्ठमण्डपे आयोजिते कार्यक्रमे हस्तान्तरितं वर्तते। रेडियो प्रसार सेवा विकास समिति रेडियो नेपालस्य कार्यकारी निर्देशकेन सुरेश कुमार कार्किणा पदात्यागपत्रं प्रदत्तमस्ति। कार्यकारी निर्देशकः कार्की संचार सूचना प्रविधि मन्त्रालयस्य माध्यमेन प्रधानमन्त्री मन्त्री परिषद कार्यालय ह्य स्वेच्छया त्यागपत्रं प्रस्तुतम् इति अज्ञापयत्।